ॐ श्रीगुरुभ्यो नमः। हरिः ॐ श्रीदुर्गास्तोत्रम्। विराटनकरं रम्यं गच्छमानो युधिष्ठिरः अस्तु वन्मनसा देवी दुर्गां त्रिभुवनेश्वरीं यशोदागर्भसम्भूतां नारायणवरप्रियाम् नन्दगोपकुले जाता माङ्गल्यां कुलवर्धनीं कंसविद्रावणकरीं असुराणां क्षयङ्करीं शिलातटविनिक्षिप्ता आकाशं प्रतिगामिनीं वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिता दिव्याम्बरधरां देवी खङ्गखेटकधारिणी भारावतरणे पुण्ये ये स्मरन्ति सदा शिवां तान् वै तारयते पापात् पङ्के गां इव दुर्बलां स्तोतुं प्रचक्रमे भूयो विविधैस्तोत्रसम्भवैः आमन्त्र्यदर्शनाकाङ्क्षी राजा देवीं सहानुजः नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणी बालार्कसदृशाकारे पूर्णचन्द्रनिभानने चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे मयूरपिच्छवलये केयूराङ्गदधारिणी भासि देवि यथा पद्मा नारायणपरिग्रहः स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरी कृष्णच्छविसमाकृष्णा सङ्कर्षणसमानना बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ पात्री च पङ्कजी घण्टी स्त्रीविशुद्धा च या भुवि पाशं धनुर्महाचक्रं विविधान्यायुधानि च कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्याञ्च विभूषिता चन्द्रविस्पर्धिना देवी मुखेन त्वं विराजसे मुकुटेन विचित्रेण केशबन्धेन शोभिना भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता विभ्राजसे चापद्धेन भोगेने वेहमन्दरः ध्वजेन शिखिपिच्चानाम् उच्छ्रितेन विराजसे कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया तेन त्वं स्तूयसे देवी त्रिदशैः पूज्यसेऽपि च त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनी प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा ममापि विजयं देहि वरदा त्वं च साम्प्रतं विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् कालिकालि महाकाली शीधुमांसपशुप्रिये कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा दुर्गास्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः कान्तारेष्वसन्नानां मग्राणां च महार्णवे दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणां जलप्रतरणे चैव कान्तारेष्वटवीषु च ये स्मरन्ति महादेवी न च सीदन्ति ते नराः त्वं कीर्तिश्रीधृतिः सिद्धिः ह्रीर्विद्या सन्ततिर्मतिः सन्ध्यारात्रिप्रभा निद्रा ज्योत्स्नाकान्तिः क्षमादया नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयं व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि सोऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान् प्रणतश्च यथा मूर्ध्ना तव देवी सुरेश्वरी त्राहि मां पद्मपत्राक्षी सत्ये सत्या भवस्वनः शरणं भव मे दुर्गे शरण्ये भक्तवत्सले एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् उपगम्यतु राजानाम् इदं वचनमब्रवीत् देव्युवाच शृणु राजन्महाबाहो मदीयं वचनं प्रभो भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव मम प्रसादान्निर्जित्य हत्वा गौरववाहिनीं राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेधिनीं पुनः भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलां मत्प्रसादाच्छते सौख्यम् आरोग्यं च भविष्यति ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुःसुतं प्रवासे नगरे वापि सङ्ग्रामे शत्रुसङ्कटे अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ये स्मरिष्यन्ति मां राजन् यथाहं भवता स्मृता न तेषां दुर्लभं किञ्चित् अस्मिल्लोके भविष्यति इतं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेतवा तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः मत्प्रसादाच्छवः सर्वान् विराटनगरे स्थितान् न प्रज्ञास्यन्ति कुरको न रा वा तन्निवासिनः इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमं रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायः